एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्रे रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन अद्य संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशः सम्बोधयिष्यते। मन्त्री परिषदः परामर्शेन नेपालस्य संविधानस्य पञ्चनवतितमायाः धारायाः अनुसारेण राष्ट्रपतिना पौडेलेन अद्य दिवात्रिवादनाय द्वयोः सदनयोः संयुक्तोपवेशः आहूतोऽस्ति। अत्रान्तरे राष्ट्रपतिना पौडेलेन संघीय संसदः द्वयोः सदनयोः वर्तमानाधिवेशनस्य अद्य चैत्रमासस्य सप्तविंशे दिवसे रात्रौ द्वादशवादनात् अन्त्यं करिष्यते। मन्त्री परिषदः परामर्शेन नेपालस्य संविधानस्य त्रिनवतितमायाः धारायाः द्वितीयोपधारायाः अनुसारेण संघीय संसदः द्वयोः सदनयोः वर्तमानाधिवेशनस्य अन्त्यं विधास्यते। राष्ट्रपतिना पौडेलेन अस्यैव चैत्रमासस्य एकोनविंशे दिवसे संघीय संसदः द्वयोः सदनयोः अधिवेशनम् आहूतम् आसीत्। प्रधानमन्त्री बालेन्द्र शाह नेपाली सेनायाः अधिकृतान् कर्तव्यनिष्ठा अनुशासिताः दायित्ववाहिनश्च भूत्वा राष्ट्रसेवायां समर्पिताः भवितुम् अनुरुणद्धि। भक्तपुरस्य खरीपाटी स्थिते नेपाली सैनिक प्रतिष्ठाने ह्य आयोजितम् अधिकृत प्रशिक्षकस्य आयुक्तस्य पदप्रदान समारोहं सम्बोधयन् प्रधानमन्त्री शाह मातृभूमिं जनतांश प्रति समर्पणस्य दृढसंकल्पेन आसन्न षट्त्रिंशतो मासानां नैरन्तर्यस्य कठिन परिश्रमस्य पश्चात् नेपाली सेनायाम् अधिकृत क्याडेट पदात् अधिकृतानां रूपेण आयुक्त पदं प्राप्तमित्यालक्ष्य वर्धापनानि अभिव्यक्तवान्। तदवसरे प्रधानमन्त्री शाह विभिन्न क्षेत्राणां सामाजिक पृष्ठभूमिवतां सैनिकानां नेतृत्वं विधाय सुदृढैकीकृत समर्थ समूहानां निर्माणाय सैनिकाधिकृताः सफलाः भविष्यन्तीति विश्वासम् अभिव्यनक्। तदवसरे दीक्षिताधिकृताः स्वस्य दायित्वम् आचरणम् अनुशासनम् च प्रति सावधानः सन्तः कर्तव्यनिष्ठाः भविष्यन्ति तत्र आत्मनो विश्वासोऽस्तीति प्रधानमन्त्री शाह विश्वासम् व्यक्तवान्। प्रधानमन्त्रिणा बालेन्द्र शाह विधेन श्रमवृत्ति सामाजिक सुरक्षा मन्त्री दीपक कुमार शाह पदमुक्त विहितोऽस्ति। ह्य प्रधानमन्त्रिणा शाहविदेन राष्ट्रोपादलस्य परामर्शेन मन्त्रिणं दीपक कुमार शाहविदं पदमुक्तं विधातुं निर्णीतमस्ति। मन्त्रिणा शाहविदेन बहुकालात् निष्क्रियावस्थायां विद्यमानां स्वास्थ्य सुरक्षण संस्थायाः सदस्याम् आत्मनः पत्नीं पदीय मर्यादायाः दुरुपयोगं कृत्वा पुनः नियमितरूपेण स्वास्थ्य सुरक्षण संस्थायाः सदस्यत्वेन सक्रियां विधातुं कार्यं विहितं। तच्च कार्यं राष्ट्रोपादलस्य नीति आचरण विपरीतम् स्थिति कथयता राष्ट्रपादलेन ह्य एव मन्त्रिणं शाहविदं पदमुक्तं कर्तुं प्रधानमन्त्रिणो बालेन्द्र शाहविदाय परामर्शः दत्तः आसीत्। ह्य एव प्रधानमन्त्रिणा शाहविदेन मन्त्री दीपक शाह पदमुक्तो विहितो वर्तते। अत्रैव राष्ट्रपतिना रामचन्द्र पौडेलेन श्रमवृत्ति सामाजिक सुरक्षा मन्त्रिणः पदमोचनानन्तरं रिक्तस्य मन्त्रालयस्य दायित्वं प्रधानमन्त्रिणो बालेन्द्र शाह विधाय प्रदत्तमस्तीति राष्ट्रपति कार्यालयेन ज्ञापितं वर्तते। प्रतिनिधिसभायाः उपसभामुखपदस्य कृते राष्ट्रिय प्रजातन्त्रदलस्य पक्षतः सरस्वती लामा इत्यस्याः श्रम संस्कृतिदलस्य पक्षतः रूबी कुमारी ठाकुर इत्यस्याश्च प्रत्याशिता पञ्जीकारिता अस्ति। संघीय संसद सचिवालयस्य कार्यतालिकायाः अनुसारेण अद्य चतुर्वादने आहूते प्रतिनिधिसभायाः उपवेशे प्रत्याशिनः प्रस्तावकेन प्रस्तावं समर्थकेन च समर्थनं विधाय उपसभामुखस्य प्रस्तावः निर्णयार्थं प्रस्तुष्यते। ह्य प्रातः एकादशवादनात् द्विवादनं यावत् सभायाः कस्यापि सदस्यस्य उपसभामुखपदे निर्वाचनाय प्रतिनिधिसभायाः नियमावल्याः अनुसारेण प्रत्याशितायाः प्रस्तावं पञ्जीकारयितुं समयः निर्धारितः आसीत्। पूर्व प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली, पूर्व गृहमन्त्री नेपाली कांग्रेस दलस्य नेता रमेश लेखकस्य प्रहरी नियन्त्रणात् विमुक्तौ स्तः। जेएनजी आन्दोलनस्य क्रमे अत्यधिकं बलप्रयोगं कृत्वा सम्भूतं यूनां मृत्युं प्रति तात्कालिक सर्वकार प्रमुखत्वेन केपी शर्मा ओली तात्कालिक गृहमन्त्री रमेश लेखकस्य दोषिणौ स्त इति कथयतः उच्चस्तरीयानुसन्धानायोगस्य प्रतिवेदनस्य आधारेण इमौ द्वावपि अस्यैव चैत्र मासस्य चतुर्दश दिवसे प्रहरिणा निगृहीतवास्ता। परन्तु काष्ठमण्डप जनपद न्यायालयेन गत बृहस्पतिवासरे नेतृद्वयं प्रहरी नियन्त्रणात् विमुक्तं कृत्वैव अनुसन्धानम् अग्रे वर्धयितुं प्रहरिणे आदेश दत्त अस्तीत्यतः इमौ द्वावपि नेतारौ नियन्त्रणमुक्तौ स्तः। न्यायालयस्यादेशस्य अनुसारेणैव पूर्व प्रधानमन्त्री ओली पूर्व गृहमन्त्री लेखकश्च ह्य एव परिवारजनाय समर्पितौ स्त इति काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रवक्ता पवन कुमार भट्टराय असूचयत्। पूर्व प्रधानमन्त्री ओली सम्प्रति स्वास्थ्योपचाराय त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालये वर्तते। अधिकार दुरूपयोग अनुसन्धान आयोगेन त्रिभुवनान्तरराष्ट्रिय प्रवेश शुल्क कार्यालयेन सह मिलित्वा शुल्कं प्रवञ्च्य अवैधानिक रूपेण धूमदण्ड सदृशस्य वस्तुनो माध्यमेन स्वर्णस्य क्रय विक्रयणस्य आरोपे पूर्वसभामुखेन कृष्णबहादुर महराभिदेन सहितानाम् अष्टाविंशतिर्जनानां विरूद्धे सप्तकोटिनाम् अष्टसप्ततिर्लक्षाणां च रूप्यकाणां भ्रष्टाचारस्य आरोपे अभियोगपत्रं पञ्जीकारितमस्ति। पूर्वसभामुखेन महरा इत्यनेन सहितानां नाम त्रिभुवन अन्तर्राष्ट्रिय विमानस्थलस्य प्रवेश शुल्क कार्यालयस्य प्रशासकस्य अरूण पोखरेलस्य प्रवेश शुल्क कार्यालयस्य प्रमुखयोः मुक्ति प्रसाद श्रेष्ठस्य अम्बिका प्रसाद खनालस्य च अधिकृतयोः रमेश कुमार खतिवडा सुनवेन्द्र श्रेष्ठयोः नायब सुब्बा पदियानाम सुवर्ण प्रभा केसी भुवन राज घिमिरे उमेश प्रसाद कोइराला रेवन्त खड्का मधुसूदन पोखरेल चेत्यादिनांच विरूद्धे भ्रष्टाचारस्य आरोपे अभियोगपत्रं पञ्जीकारितमस्ति।